अकन्दमण्डलाकारं व्यक्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः आज्ञानातिमिरान्धस्य ज्ञानाञ्जनाशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुर्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः स्थावरं जङ्गमां व्याप्तं यत्किञ्चित् सचराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः चिन्मयं व्याप्यात् सर्वं त्रैलोक्यं सचराचरं तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः सर्वश्रुतिशिरोरत्ना विराजिता पदाम्बुजः वेदान्तं भुजसूर्यो यः तस्मै श्रीगुरवे नमः चैतन्यशश्वता शान्तो व्योमातीतो निरञ्जनः बिन्दुनात्कलातीतः तस्मै श्रीगुरवे नमः ज्ञानशक्तिसमारूढः तत्त्वमाला विभूषितः भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः आकेन जन्म सम्प्राप्ता कर्मबन्धविदाहिने आत्मज्ञानप्रदानेन तस्मै श्रीगुरवे नमः शोषणं भवसिन्धुश्च ज्ञापनं सर्वसम्पदः गुरोपदोदकं सम्यक् तस्मै श्रीगुरवे नमः न गुरोरतिकं तत्त्वं न गुरोरतिकं तपः तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः मनाता श्रीजगानाता मत्कुरु श्रीजगात्कुरुः मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः गुरुरतिरनाधिश्च गुरुपरं देवतां गुरोपरातरं नास्ति तस्मै श्रीगुरवे नमः त्वमेव माता च पिता त्वमेव त्वमेव बन्धुशसका त्वमेव त्वमेव विद्याद्रविणां त्वमेव त्वमेव सर्वं मम देवदेव त्वमेव सर्वं मम देवदेव